ॐ हिरण्यवर्णमिति पञ्चदशर्चस्य सूक्तस्य आनन्दकर्दमचिक्लितेन्दिरासुता ऋषयः श्रीरग्निर्देवते आद्यास्तिस्रो अनुष्टुपः चतुर्थी बृहति पञ्चमी षष्ठ्यौ त्रिष्टुभौ ततोष्टावनुष्टुभः अन्त्याः प्रस्तारपङ्क्तिः श्रीमहालक्ष्मीप्रीत्यर्थं जपे विनियोगः।
ॐ हिरण्यवर्णां हरिणीं सुवर्णदजस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ताम आवह जातवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीं श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् कांसोऽस्मितां हिरण्यप्राकारां आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसो दिजातो वनस्पतिस्तव वृक्षोऽर्थबिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी उपैतु मां देव सख कीर्तिश्च मणिना सह प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिं वृद्धिं ददातु मे क्षुत्पिपासामलां ज्येष्ठाम् अलक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वान्निर्णुतमे गृहा गन्धद्वारां दुरादर्शां नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं मनसः काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीश्रयतान्यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियं वासय मे कूले मातरं पद्ममालिनीम् आपः सृजन्तु स्निग्धानि चिक्लीतावसमे गृहे नीच देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह आर्द्रां यः करणीं यष्टिं सुवर्णां हेममालिनीं सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम आवह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषाणहम् यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तम् पञ्चदशर्चम् च श्रीकामः सततम् जपे सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरे प्रसीद मह्यम् ॐ ह्रीं महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः।